ಗಣಪತಿ ಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದ ಸಾಧನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಚೇಭಿಃ ವಾಜಿನೀವತೀ ದೀನಾಮ ವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತನುರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಗಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇ ಬಿಭರ್ಷಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರದಾಂ ಗುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನಮಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಚಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯ ವೋಚದಧಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೀಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಶ್ಚಯಾತು ಧಾನ್ಯಃ ಅಸೌಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರುಸ್ಸು ಮಂಗಳಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡಹೀಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಧೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚದನ್ವನಸ್ವಮುಭಯೋರಾತ್ಮಿಯೋರ್ಜಾ ಯಾಶ್ಚ ದೇಹಸ್ಥ ಇಷವ ಪರಾತ ಭಗವೋ ವಪಾ ಅವತತ್ಯದನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾಣಾಮುಖ ಶಿವೋ ನಃ ಸುಮನಾಭವ ವಿಜ್ಯಂ ದನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಶಂಗಧಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಶ್ಚ ಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾತ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತ ದೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋಯ ಇಷುತಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾರಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సస్మింజరాయ త్విషీమతే పథీనాం పతయే నమో నమో. బభ్లుషాయ వివ్యాధినేనానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవత్య హేత్యే జగతాం పతయే నమో నమో. రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ తపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువందగే వారివత్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమః. కృష్ణవేతాయ ధావతే సత్వనాం పతయే నమః. నమస్తహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః. కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః. శ్రీకావిభ్యోజిగాగుం సభ్యోముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో రక్తం జరభ్య ప్రగ్రంథానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంజానాం పతయే నమో నమ. ఇషుమద్భ్యోధన్ వావిభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ. ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ. తిష్టభ్యో ధావభ్యశ్చ వో నమో నమ. సభాభ్య సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిద్యంతేభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్త్రిగం హతేభ్యశ్చ వో నమో నమో. గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో. వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమ. తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ. కురాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ. పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ. ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో. మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమ. श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिबिभिष्टाय च नमो मीनुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शीभ्याय च नमः ओर्भ्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अवगल्भाय च नमो जगन्याय च बुद्ध्याय च नमः सोऽभ्याय च प्रतिसत्याय च नमो ज्ञाम्याय च क्षेम्याय च नमः उर्वर्त्याय च खल्याय च नमः श्लोक्याय चावसाम्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरधाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्टवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईक्ष्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुभाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः चङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे बधाय च दूरे बधाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमः ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोद्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोतरणाय च नमः आतार्याय च लाद्याय च नमः चष्ट्याय च भेन्याय च नमः त्रिगत्याय च प्रवाक्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः ಸಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮಃ ಕಾರ್ತ್ಯಾಯ ಚ ಗಪ್ವರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯ್ಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾವಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಟ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮಃ ಊರ್ಭ್ಯಾಯ ಚ ಸೂರ್ಭ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶತ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾಣಾಯ ಚ ವಿಘ್ನತೆ ಚ ನಮಃ ಆಖಿದತೆ ಚ ಪ್ರಖಿದತೆ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗು ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧತಸ್ಪದೇ ದರಿದ್ರಂ ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭಿರ್ಮಾ ರೋಮೋ ಯೇಷಾಂ ಕಿಂಚ ನಾಮಮತ್ ಯಾತೆ ರುದ್ರ ಶಿವಾತನೋ ಶಿವಾ ವಿಶ್ವಾಹ ಭೇಷಜೀ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೀತಯಾ ನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯತ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯತಾ ನಶ್ಯಮ ಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುಲಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯತ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಚಯೋಚ್ಚಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತ ಮುತಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತ ಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವಧೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಾಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನತ್ತೋ ಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರಭಾಮಿತೋ ವಧೀರ್ ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತೆ ಗೋಗ್ರಮುತ ಪೂರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೆ ಅಸ್ತು ರಕ್ಷಾಜನೋ ಅಧಿಜ ದೇವ ಬ್ರೂಹ್ಯದಾಜನ ಶರ್ಮ ಯಚ್ಚ ದ್ವಿಬರುಹಾಃ ಸುಹಿ ಶ್ರುತಂಗತ್ತಧತಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ನು ಮುಗ್ರಂ ಮೃಡಾಜರಿದ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಹನ್ಯಂತೆ ಅಸ್ಮನ್ನಿವ ಬಂಧು ಸೇನಾಃ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ವೃಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಘಾಯೋ ಅವತ್ತಿರಾ ಮಗವಧ್ಯಸ್ತನುಶ್ವಮೀಡ್ವಸ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀರುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾ ನಮಾಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹೇ ವಿಕಿರಿತ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಏತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತುತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಧಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವಃ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಂ ಸಹಸ್ರಯೋಜನೆ ವದನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ನವೇಂತರಿಕ್ಷೇ ಭವ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸತ್ಪಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಃ ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ್ ಯೇ ಪಥಾಂ ಪಥಿ ರಕ್ಷಯ ಐಲಭೃತಾಯವ್ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಶೃಗಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂಸಾಶ್ರಯೋಚನೇ ವದನ್ವಾನಿ ದನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೆ ಯೇ ದಿವ್ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರುಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿಚೇರ್ಗಶೋ ದೇಚೇರ್ಗಶೋಧ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂತು ತೇಯಂ ದಿಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿತಂ ಭೋಜಂ ಭೇದದಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ಬಂಧನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೀಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸು ಯೋಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾ ವಿವೇಶ ತತ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇಯಾಪ್ಯಾಯಸ್ವಾ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಹಿಯಸ್ವಿಷುಸುಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ವಿರ್ದೇವಮಸುರಂ ದುವತ್ಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವವೇಶೋಯಗು ಶಿವಾಭಿಮರ್ಶನಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಅಗ್ನಾ ವಿಷ್ಣೋ ಸಜೋಷ ಸೇವಾವರ್ಧಂತು ವಾಂಗಿರಃ ಯುಮ್ನೈರ್ವಾಚೇಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರತಿತಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ಧ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾಧೀತಂ ಚ ಮೇ ವಾಕ್ಚ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮಾಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮಾಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮಾಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇ ಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಷಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜ್ಯೇಷ್ಠ್ಯಂ ಚ ಮಾಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇಂಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ವರಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವಶ್ಮಾ ಚ ಮೇ ದ್ರಾಘುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ತ್ವಿಶಿಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾಣಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪತಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇ ನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಸ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ದರ್ತಾ ಚ ಮೇ ಶೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಯ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೂಶ್ಚ ಮೇ ಪ್ರಸೂಶ್ಚ ಮೇ ಸ್ಥಿರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುರಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಊರ್ಚ ಮೇ ಸುಹೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸಗ್ಧಿಶ್ಚ ಮೇ ಸಪೇತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮೌದಿತ್ಯಂ ಚ ಮೇ ರಯಿಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಚ ಮೇ ಪ್ರಭುಚ ಮೇ ಬಹುಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣಕರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೂಯವಾಶ್ಚ ಮೇ ನಂ ಚ ಮೇ ಶುಶ್ಚ ಮೇ ವಿಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ಗಾಶ್ಚ ಮೇ ಕಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನಿವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾಶ್ಚ ಮೇ ಮೃತ್ತಿಕಾಶ್ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಸೀಸಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮಾಪಶ್ಚ ಮೇ ವೇರುದಶ್ಚ ಮ ಓಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಣಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಣಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮಯೇಮಶ್ಚ ಮಯಿತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತಿ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿಲೌ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಗುಂಸುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇ ದಾಭ್ಯಶ್ಚ ಮೇ ದಿಪತಿಶ್ಚ ಮ ಉಪಾಗುಂಸುಶ್ಚ ಮೇ ಅಂತರ್ಯಾಮಶ್ಚ ಮ ಐಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರಾವರುಣಶ್ಚ ಮ ಅಶ್ವಿನಶ್ಚ ಮೇ प्रति प्रस्थानस्य मे शुक्रस्य मे मन्ते च महाग्रयणस्य मे वैश्वदेवस्य मे ध्रुवस्य मे वैश्वानरस्य मरुतुग्रहाश्च मे त्रिग्राह्याश्च महेन्द्राग्नश्च मे वैश्वदेवस्य मे मरुत्वतीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीमतश्च मे आर्योजनश्च मे इद्मस्य मे बलिश्च मे वेदिश्च मे तृष्णीयाश्च मे शुचश्च मे चमसाश्च मे ग्रावारश्च मे स्वरवश्च म उपरवाश्च मे द्विषवने च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्च म आदवनीयश्च म आग्नेयम् च मे अविर्दानम् च मे गृहाश्च मे सरश्च मे पुरोडाशाश्च मे पचताश्च मे वव्रतश्च मे स्वगाकारश्च मे अग्निश्च मे कर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे अश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो दृष्ट्या बृहद्दधन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्टवाच्च मे पष्टौ हि च म उक्षा च मे वशा च मरुषभश्च मे वेहश्च मे नद्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे अष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे साचत्वारिगुंसच्च मे वाजश्च प्रथवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चाङ्ग्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इदा देवोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानिषगुंसि षद्विश्वे देवासोऽर्तवाच पृथिवीमा कर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शं नो अस्त्वद्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषानः यदन्येनातिरोहति एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदयेत् पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्म इद्मश्वरद्रविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अवद्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् पृषदाज्यम् पशुगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्रये तस्माद्यज्ञात् सर्वहुतः ऋषस्सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् व्यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधु कथिदा व्यकल्पयन् मुखम् किमस्य कौ बाहु का वोरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरुतदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुःसूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदाजहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवते नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरता च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेते तत्पुरुषस्य विश्ववाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् परमिच्छन्ति वेदतः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीष्यते लक्ष्मीस्य पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याक्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्न अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 ॐ भद्रं कर्णे विश्रुणुयामदेवा भद्रं पश्येमाशवीर्यजत्रा स्थिरैरङ्गै सुष्णुवागुंसस्तनुभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नत्ताक्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं वच्मे सत्यं वच्मे अवत्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् तत्त्वो जायते सर्वम् जगदिदम् तत्त्वस्तिष्ठति सर्वम् जगदिदम् त्वैरयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वाग्पदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारत्रिदोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनो ध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमा त्वम् ब्रह्मभूर्भुवस्तु वरो गणादिम् पूर्वमुच्चार्य भर्णादीम् तदनन्तरम् अनुस्वारपरतरः अर्धेन्दुलसितम् तारेण रुद्धम् एतत्तवमनुस्वरूपम् गकारपूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारस्यान्त्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निधृगायत्री छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्दाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्दी प्रचोदयात् एकदन्दम् च दुर्हस्तम् पाशमङ्कुशधारिणम् रथम् च वरदम् हस्ते विभ्राणम् मोषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैर्सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ण्यादो प्रकृते पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो घातपतये नमो गणपतये नमः प्रमदपतये नमस्ते अस्तु लम्बोदरायेकदन्ताय विघ्नराशिने शिवसुताय वरदमूर्तये नमः एतदधर्वशेषम् योधीते स ब्रह्मभूयाय कल्पते स सर्वविघ्नेन बाध्यते। सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधियानो दिवसकृतं पापं नाशयति प्रातरधियानो रात्रिकृतं पापं नाशयति सायं प्रातप्रयञ्जानो पापो पापो भवति सर्वत्राधियानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दते इदमधर्वशेषमशिष्यायन देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहत्रावर्तनाद्यम्यं काममधीतेतं तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्यामनश्रं जपति स विद्यावान् भवति इत्यधर्मणवाक्यम् ब्रह्माद्यावरणं विद्यान्न विभेदि कदाचनेति यो दूर्वाङ्गुरैर्यजति स वैश्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति समेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यः समिद्धिर्यजति स सर्वं लभते स सर्वं लभते अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वे भवते सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रौ भवति महाविज्ञात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं वेद इत्युपनिषते भद्रं कर्णे विशृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुभागुंसस्तनूभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ विष्णोर्नुकम् वीर्याणि प्रवोचय्य पार्थिवानि विममे रजागुंसियो अस्तभाग्यदुत्तरगुंसहस्तम् विचक्रमाणस्त्रेदोरुगायः विष्णो रराटमसि विष्णो पृष्टमसि विष्णो क्षत्रे स्तो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तरस्य प्रियमभिपातो अस्याम् नरो यत्र देवयवो मदन्ते उरुक्रमस्य स हि बन्धुरित्था विष्णो पदे परमे मध्व उत्सः प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवा वृधान न ते महित्वमन्वश्नुवन्ते उभे ते वे విద్మరజసే పృథివ్యా విష్ణో దేవత్వం పరమస్య విత్సే విచక్రమే పృథివీ మేషయేతాం క్షేత్రాయ విష్ణుర్మనుషే దశస్యన్ ధ్రువాసో అస్య కీరయోజనాసః ఉరుక్షితిగుం సుజనిమాచకార త్రిద్దేవ పృథివీ మేషయేతాం విచక్రమే శతర్చ సంమహిత్వా ప్రవిష్ణురస్తు తవ సస్తవీయాన్ ద్వేషగృహ్యస్తవిరస్య నామ అతో దేవా అవంతు నో యతో విష్ణుర్విచక్రమే పృథివ్యా సప్తధామభిః ఇదం విష్ణుర్విచక్రమే త్రేధా నిదధే పదం సమూఢమస్య పాగుం సురే త్రీణి పదా విచక్రమే విష్ణుర్గోపాదాభ్యః తతో ధర్మాణి ధారయన్ విష్ణో కర్మాణి పశ్యత యతో వ్రతాని పశ్పశే ఇంద్రస్య యుజ్యత్సఖా తద్విష్ణో పరమం పదగుం దదా పశ్యంది సూరయః దివేవ చక్షురాతతం తద్విప్రాసో విపన్యవో జాగ్రువాగుం సస్సమిందతే విష్ణోర్యత్ పరమం పదం పర్యాప్త్యా అనంతరాయాయ సర్వస్తోమోతి రాత్ర ఉత్తమమహద్భవతి సర్వస్యాప్త్యే సర్వస్య జిత్యే సర్వమేవ తేనాప్నోతి సర్వం జయతే పురుషస్య విద్మ సహస్రాక్షస్య మహాదేవస్య ధీమహి తన్నో రుద్ర ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్ తత్పురుషాయ విద్మహే వక్రతుండాయ ధీమహి తన్నో దంది ప్రచోదయాత్ తత్పురుషాయ విద్మహే చక్రతుండాయ ధీమహి తన్నో నంది ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాసేనాయ ధీమహి తన్నషణ్ముఖ ప్రచోదయాత్ తత్పురుషాయ విద్మహే సువర్ణపక్షాయ ధీమహి తన్నో గరుడ ప్రచోదయాత్ వేదాత్మనాయ విద్మహే హిరణ్యగర్భాయ ధీమహి తన్నో బ్రహ్మ ప్రచోదయాత్ నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్ వజ్రనఖాయ విద్మహే తీక్ష్ణదఘృష్ట్రాయ ధీమహి తన్నో నారసిగుంభ ప్రచోదయాత్ భాస్కరాయ విద్మహే మహద్యుతికరాయ ధీమహి తన్నో ఆదిత్య ప్రచోదయాత్ వైశ్వానరాయ విద్మహే లాలీలాయ ధీమహి తన్నో అగ్ని ప్రచోదయాత్ కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహి తన్నో దుర్గి ప్రచోదయాత్ ఓం సాయీశ్వరాయ విద్మహే సత్యదేవాయ ధీమహి తన్నః సర్వ ప్రచోదయాత్ స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహేమహేషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।